एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। प्रधानमन्त्री सुशीला कार्की निगदति महिलायाः सन्दर्भे निर्मितानाम् उचितविधीनाम् क्रियान्वयने समस्या दृष्टास्ति। महिला बाल बालिका ज्येष्ठ नागरिक मन्त्रालयेन ह्य प्रधानमन्त्री कार्यालये आयोजिते लैंगिक हिंसा विरूद्धस्य षोडश दिवसीय अन्तर्राष्ट्रिय अभियानस्य शुभारम्भ कार्यक्रमे प्रधानमन्त्री कार्की अवोचत् कस्याश्चित् एकस्या महिलाया प्रधानमन्त्रिण राष्ट्रपतेश्च वा पदे आरूढायां स्थितौ एव महिलाया सहभागिताया सुनिश्चयनं भूत्वा समानताया स्थिति उत्पन्नास्ति इति मन्तुं शक्यावस्था नास्ति। महिलायाः राजनीतिर्माध्यमेन नीति निर्माणस्य स्तरे प्राप्ते पश्चादेव महिलायाः विषये निर्णयः कर्तुं शक्यते इति भाषमाणा प्रधानमन्त्री कार्की समाजे महिलासु जायमानायाः हिंसायाः अन्ताय समाजस्य जागरणं विधेयमिति बलम् अदात्। कार्यक्रमे राष्ट्रिय महिलायोगस्य अध्यक्षा कमला पराजुली महिला बालबालिका ज्येष्ठ नागरिक मन्त्रालयस्य सचिव लक्ष्मी बस्नेत च महिलायाः अवस्थाया विषये विचारं व्यक्तवत्यौ। प्रतिवर्षं नोवेम्बर मासस्य पञ्चविंशात् दिवसात् डिसेम्बर मासस्य दशमं दिवसं यावत् लैंगिक हिंसा विरूद्धस्य षोडश दिवसीयम् अन्तर्राष्ट्रियाभियानम् आविश्वं समायोज्यते। संचार सूचना प्रविधि मन्त्री जगदीश खरेल निगदति समय एव निर्वाचनं भविष्यति इति विषये कथं विदोपि संशयः नास्ति। परह्यः उपविष्टस्य मन्त्रिपरिषद उपवेशस्य निर्णयान् सार्वजनिकर्तुं संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने मन्त्री खरेल सम्प्रति राजनीतिक दलैः निर्वाचन आयोगे दल पञ्जीकरणस्य नवीकरणस्य च कार्यं विद्यमानम् अस्ति इति अगदत्। मन्त्री खरेल अधुनावधि अष्टलक्षाधिकानां मतदातृणां नामानि पञ्जीकृतानि सन्ति त्यतः देशे निर्वाचनस्य वातावरणं सुदृढं जायमानम् अस्ति इति अगदत्। मन्त्री खरेल सुरक्षा निकायैः सुरक्षायाः वातावरणं निर्माय सम्बद्धेषु निकायेषु योजनायाः क्रियान्वयनं विधीयमानम् अस्ति इति अगदत्। ह्य उपविष्टेन मन्त्रिपरिषद उपवेशेन ऊर्जाक्षेत्रस्य अन्तर्राष्ट्रिय समन्वयं ध्यात्वा सर्वकारेण विद्युत् नियमनायोगं साउथ एशिया फर इन्फ्रास्ट्रक्चर रेगुलेशन इति संस्थाया सदस्यतां स्वीकर्तुं नेपाल प्रहरेण संगठन व्यवस्थापन सर्वेक्षणं विधातुं च स्वीकृतिं प्रदातुं निर्णीतं वर्तते। गृहमन्त्री ओमप्रकाश अरियाल निगदति सुशासनस्य भ्रष्टाचारस्य नियन्त्रणस्य च याचनाम् उपस्थाप्य जेएनजी युवसन्तत्या गत भाद्रमासस्य चतुर्विंशे च दिवसयो विहितस्य प्रदर्शनस्य पश्चात् सृष्टायां विषम परिस्थितौ वर्तमान सर्वकार संघटितोऽस्ति इत्यतः तथाविधां त्रासपूर्णावस्थाम् अतिक्रम्य सुरक्षायाः अवस्थां साधारणीकर्तुं वर्तमान सर्वकार सफल सम्भूतो वर्तते। गृहमन्त्रालयेन लुम्बिनी प्रदेशस्य आन्तरविषय विधि मन्त्रालयेन च ह्य रूपन्देही जनपदस्य भैरवास्थाने आयोजितां प्रदेशस्तरीयां सुरक्षागोष्ठीं सम्बोधयन् गृहमन्त्री अरियाल वर्तमान सामान्य परिस्थितिं प्राप्तुं समेषाम् अथक प्रयास परिश्रम महत्वपूर्ण प्रयासश्च कारणानि सन्ति। सम्प्रति सुरक्षाया अवस्था सामान्या सम्भूता च वर्तते इति उदैरयत्। तदवसरे मन्त्री अरियाल सुशासनं संस्थाप्य निर्वाचनस्य सम्पादनस्य अभिवार वर्तमान सर्वकारस्य स्थिति प्रावोचत्। नेकपा एमाले दलेन आगामिनः प्रतिनिधि सभा निर्वाचनस्य कृते दल पञ्जीकरणाय निवेदनं प्रदत्तं वर्तते। एमाले केन्द्रीय निर्वाचन विभागस्य प्रमुखेण नीरज आचार्येण सहितैः नेतृभिः निर्वाचनायोगं प्राप्य दल पञ्जीकरणाय निवेदनं प्रदत्तमस्ति। आगामिना फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य निर्वाचनस्य कृते आयोगे पञ्जीकारितैः अशीत्या राजनीतिक दलैः निर्वाचने भागं ग्रहीतुं दल पञ्जीकरणस्य कृते निवेदनं प्रदत्तम् अस्ति इति आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराई असूचयत्। नेकपा एमाले दलेन आगामिनः माघ मासस्य एकादशे दिवसे आयोक्ष्यमाणस्य राष्ट्रियसभायाः सदस्य पदानां निर्वाचनस्य कृते एतत्पूर्वमेव दल पञ्जीकरणं विहितं वर्तते। प्रतिनिधि सभाया पुनस्थापनाया याचनाम विदाय नेकपा एमाले दलेन सर्वोच्च न्यायालये न्यायिक निवेदनम पञ्जीकारयितुम् निवेदनम प्रदत्तम वर्तते। विघटित प्रतिनिधि सभायां नेकपा एमाले दलस्य संसदीय दलस्य प्रमुख सचेतक पदीय महेश वर्तौला, सचेतक पदीय सुनिता बरालश्च ह्य संयुक्त रूपेण सर्वोच्च न्यायालये याचिका निवेदनम प्रस्तुतवन्तौ। एमाले दलेन प्रस्तुतम याचिका निवेदनम अध्ययनस्य क्रमे अस्ति, इत्यतः पञ्जीकार्यते न वा इत्यस्मिन् विषये अद्य निर्णयो भविष्यतीति सर्वोच्च न्यायालयस्य सह रजिस्ट्रार पदीय प्रवक्ता च अर्जुन प्रसाद कोइराला असूचयत। याचिका निवेदने प्रधानमन्त्रिणा नियुक्तेः प्रतिनिधिसभायाः विघटनस्य तदनन्तरं सम्भूतानां निर्णयानां च निरसनस्य याचना विहितास्ति। असांविधानिक रूपेण प्रतिनिधिसभायाः विघटनम् विहितम् अस्ति इति उल्लिख्य प्रतिनिधिसभायाः पुनस्थापनायाः याचनया सहितम् याचिका निवेदनम् प्रस्तुतम् अस्ति इति विघटित प्रतिनिधिसभायाः एमाले दलस्य प्रमुख सचेतक पदीयः वर्तौला असूचयत। अत्रान्तरे नेकपा एमाले दलेन एकादशतमस्य राष्ट्रिय महाधिवेशनस्य प्रतिनिधीनां चयनाय दलस्य संगठन विभागेन पञ्चसूत्रात्मकं निर्देशनं प्रकाशितं वर्तते। दलस्य स्थायी समितेः सदस्येन संगठन विभाग प्रमुखेण च काशीनाथ अधिकारिणा प्रतिनिधीनां प्रचयनस्य निर्वाचन प्रक्रियायां प्रवेशात् पूर्वं सम्बद्धस्य निर्वाचन क्षेत्रस्य अन्तिम मतदातृ सूची अनिवार्यतया प्रकाशनीया इति अगत। एतदर्थं केन्द्रीय समितेः पश्चात्तन परिपत्रम् आधारतया ग्रहणीयम् इति निर्दिष्टमस्ति। एवमेव निश्चितायाः अन्तिमायाः मतदातृनाम सूचेः संख्या केन्द्रीय संघटन विभागाय तत्कालं ज्ञापयितुम् अपि निर्देशनं प्रदत्तं वर्तते। नेकपा एमाले दलस्य वरिष्ठोपाध्यक्षेण ईश्वर पोखरेलेन दलस्य एकादशतमे राष्ट्रिय महाधिवेशने अध्यक्ष पदस्य प्रत्याशितां प्रस्तोतुं घोषणा विहितास्ति। वरिष्ठोपाध्यक्षेण पोखरेलेन ह्य विज्ञप्तिं प्रकाश्य दल निर्माणे विहितस्य योगदानस्य आधारेण महाधिवेशने अध्यक्ष पदस्य प्रत्याशितां प्रस्तोतुम् आत्मना निष्कर्षः विहितोऽस्तीति चर्चयता प्रत्याशितायै घोषणा विहितास्ति इति सूचितं वर्तते। एमाले दलस्य महाधिवेशनम् अस्यैव मार्गशीर्ष मासस्य सप्तविंशात् दिवसात् एकोनत्रिंशं दिवसं यावत् काष्ठमण्डपे आयोक्ष्यते। एनपीएल नाम्न्या नेपाल प्रीमियर लीग इति क्रिकेट क्रीडा श्रृंखलायाः अन्तर्गतायां पूर्वेद्यो क्रीडितायां क्रीडायां काष्ठमाण्डो गोरखाज इति समूहेन लुम्बिनी लायन्स इति क्रीडा समूह द्वाविंशत्या धावनांकैः पराजितोऽस्ति। विजयाय प्रदत्तम् अष्टापञ्चाशदुत्तरैकशत धावनांकानां लक्ष्यम् अनुसरता लुम्बिनी लायन्स समूहेन निर्धारितानां विंशतेः ओवरांकानां क्रीडायां सर्वान् क्रीडकान् हापयित्वा 10.1/1 ओवरांकेषु 25.1% एव धावनांकाः अर्जिताः आसन्। आगामिनि वर्षे भारत श्रीलंका देशाभ्याम संयुक्त रूपेण आयोक्ष्यमाणाया T20 विश्वकप क्रिकेट क्रीडा श्रृंखलाया क्रीडा तालिका सार्वजनिकृता वर्तते। आईसीसी नाम्न्या अन्तर्राष्ट्रिय क्रिकेट क्रीडा परिषदा ह्य क्रीडा तालिका सार्वजनिकृता अस्ति। तालिकाया अनुसारेण नेपालस्य प्रथम क्रीडा इंग्लैण्ड देशेन सह भविता। क्रिकेट क्रीडेयम् आगामिनि फेब्रुवरी मासस्य अष्टमे दिवसे भविता। द्वितीय क्रीडा इटाली देशेन सह फेब्रुवरी मासस्य द्वादशे दिवसे। तृतीय क्रीडा पञ्चदशे दिवसे वेस्टइण्डीज देशेन। चतुर्थ क्रीडा फेब्रुवरी मासस्य सप्तदशे दिवसे बंगलादेशेन सह च भविष्यन्तीति निश्चितं वर्तते। इति समाचारः।